इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। सर्वोच्च न्यायालयः 25-2000तमवर्षीयं वक्फ संशोधनाधिनियमम् अधिकृत्य स्वकीयाम् अल्पावधिक याचिकां तदा स्थगितवान् यदा केन्द्रेण पीठेन एकेन च उत्थापितेषु त्रिषु प्रमुखेषु प्रश्नेषु उत्तरार्थम् अधिकः समयः याचितः। मुख्यन्यायाधीशस्य संजीव खन्ना इत्येतस्य न्यायमूर्तिनः पीवी संजय कुमार केवी विश्वनाथन इत्यनयोः त्रयाणां न्यायाधीशानां एकेन पीठेन मिलित्वा अस्य विधेयकस्य विरोधं कुर्वतां याचिकानां समूहस्य विचारणां कुर्वता आसीत्। अयं प्रसंगः अद्य मध्याह्ने 2 वादने त्रयाणां न्यायाधीशानां पीठस्य सम्मुखे पुनरेकवारं समारप्स्यते। जनरल तुषार मेहता इत्येषः पृष्टवान् यत् कथम् उपयोक्त्रा वक्फ इत्येतस्य अनुमतिं निराकर्तुं शक्यते, यतोहि वक्फ इत्येतस्य पञ्जीकरणार्थम् आवश्यकपत्राणि न भविष्यन्ति। विचारणायाः अन्ते च खन्ना इत्ययं वक्फ अधिनियमस्य संशोधनानां विरुद्धं पश्चिमबंगालराज्ये उद्भूतायाः हिंसायाः विषये चिन्तामपि प्रकटितवान्। प्रवर्तननिदेशालयेन हरियाणा राज्ये रॉबर्ट वाड्रा इत्येषः एकेन भूमि सम्बद्धेन धनशोधन प्रकरणस्य निरीक्षणस्य प्रसंगे ह्यः नैरन्तर्येण द्वितीये दिवसेपि परिपृच्छां समाहूतः। रॉबर्ट वाड्रा इत्यमुना साकं परिपृच्छा नवदिल्लीस्थिते प्रवर्तन निदेशालय कार्यालये जाता। अभिकरणेन अनेन श्वः पुनः परिपृच्छार्थम् अयं समाहूतः। प्रकरणमिदं श्री वाड्रा इत्येतस्य उद्योगद्वारा गुरुग्रामे भूमिक्रयणेन सम्बद्धं वर्तते। केन्द्रीय वाणिज्योद्योग मन्त्री पीयूष गोयलः कथितवान् यत् भारतम् एकमुदीयमानम् आपणं वर्तते तथा च विश्वस्य द्रुतगत्या संवर्धमाना अर्थव्यवस्थापि विद्यते। ह्यः नवदिल्ल्यां 25-2000तमवर्षं भारत मध्य पूर्व यूरोपार्थिकवीथि सम्मेलनं सम्बोधयता मन्त्रिणा इदं निगदितम्। श्रीगोयलेन अग्रे प्रोक्तं यत् प्रशासनं तैः देशैः सह भारतस्य व्यापारिक सम्बन्धान् विस्तारयति, यत्रतः उचितमूल्यम् अस्मै मिलतीति। अयं हि अग्रे प्रावोचत् यत् प्रशासनं तत्रापि तैः देशैः सह सम्बन्धान् सुदृढयति, यत्र इदं प्रशासनं न्यायसंगतं समन्वययुतं मुक्तव्यापार सहभागित्वं च स्थापयितुं शक्नोतीति। केन्द्रीय जलपोत जलमार्ग मन्त्री सर्बानन्द सोनोवालः प्रबलतया प्रोक्तवान् यत् जलपोत स्थानकानां बहुविध परिवहनानां आंकिकीय मञ्चानां यथा मैत्री इत्येतस्य विकासेन सह भारतेन आधुनिकी क्रान्तिः अग्रे नीयते। नवदिल्ल्यां ह्यः 25-2000तमवर्षीयं भारत मध्य पूर्व यूरोपार्थिक वेथि सम्मेलनं सम्बोधयन् श्री सोनोवालः दृढीकृतवान् यत् इदं सम्मेलनं वैश्विक सम्पर्क सौविध्याय क्रीडा परिवर्तकत्वेन गण्यते। भारतस्य मुख्यन्यायाधीशेन संजीव खन्ना इत्येतेन आगामिनः मुख्यन्यायाधीशस्य रूपेण न्यायमूर्तिनः बी आर गवई इत्येतस्य नाम्नः अनुशंसा कृतास्ति। न्यायमूर्तिः गवई इत्येषः सर्वोच्चन्यायालयस्य द्वितीयः वरिष्ठतमः न्यायाधीशो वर्तते। तस्य च नाम्नः अनुशंसा केन्द्रीय विधि मन्त्रालयाय कृतास्ति। वर्तमानस्य मुख्यन्यायाधीशस्य न्यायमूर्तिनः च संजीव खन्ना इत्येतस्य कार्यकालः मई मासे 13 दिनांके अवसीयते। लोकसभाध्यक्ष ओम बिरलाः अवदत् यत् 47-2000तमवर्षपर्यन्तं भारतं पूर्णतया विकसितराष्ट्ररूपेण परिवर्तयितुं भारतीय नेतृत्वस्य दृढप्रतिबद्धतायाम् उद्योगस्य वाणिज्यस्य च स्तम्भानां महत्वपूर्णं स्थानं वर्तते इति। इण्डियन् प्रीमियर् लीग् इत्येतस्यां 20-प्रतिविंशति क्रिकेट स्पर्धा मालिकायां ह्यः रात्रौ क्रीडिते द्वन्द्वे दिल्ल्याः अरुण जेटली क्रिकेट क्रीडाङ्गणे डेल्ही कैपिटल्स दलेन राजस्थान रॉयल्स दलं पराभूतम्। अद्य च द्वितीया प्रतिस्पर्धा 7:30 क्रीडिष्यते इति वार्ताः।